ब्रह्मात्मन् वद सृजत तथ कामयत समात्मना वन्द्येयेति आत्मन्नात्मन् नित्यामन्त्रयत तस्मै दशमगुम् भूतः प्रत्यशृणोन् स दशहूतो भवत् दशहूतो हवैनामैषः तम् वा एतम् दशहूतगुम् सन्तम् दशहूतेत्याचक्ष्यते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै सप्तमगुम् होतः प्रत्यशृणोत् स सप्तहूतो भवत् सप्तहूतो हवैनामैषः तम् वा एतम् सप्तहूतकम् सन्तम् सप्तहूतेत्याचक्ष्यते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै षष्टमगुम् सूतः प्रत्यशृणोत् च षड्भूतो भवत् षड्भूतो हवैनामैषः तम् वा एतम् षड्भूतगुम् सन्तम् षड्भूतेत्याचक्ष्यते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै पञ्चमगुम् होतः प्रत्यशृणोत् स पञ्चहूतो भवत् पञ्चहूतो हवैनामैषः तम् वा एतम् पञ्चहूतकम् सन्तम् पञ्चहूतेत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै चतुर्थगुम् होत प्रत्यशृणोत् स चतुर्होतो भवत् चतुर्होतो हवैनामैषः तम् वा एतम् चतुर्होतगुम् सन्तम् चतुर्होतेत्याचक्ष्यते परोक्षेण परोक्षप्रिया इव हि देवाः तमब्रवेद् त्वम् वै मे नेदिष्टगुम् होतः प्रत्यश्रौषे त्वयेनाख्यातारहिते तस्मान्नुहैनागुम् चतुर्होतारमित्याचक्ष्यते तस्मात् शुश्रूषु पुत्रानागुम् हृद्यतमः नेदिष्टो हृद्यतमहन्नेदिष्टो ब्रह्मणो भवति य एवम् वेदा आत्मनेनः